अथ श्रीमद्वाल्मीकिरामायणम् अथ संक्षेपरामायणम् ॐ तपस्वाध्यायनिरतम्
तपस्वाध्यायनिरतम्
तपस्वी वाग्विदां वरम्
तपस्वी वाग्विदां वरम्
नारदं परिपप्रच्छ
नारदं परिपप्रच्छ
वाल्मीकिर् मुनिपुङ्गवम्
वाल्मीकिर् मुनिपुङ्गवम्
कोऽन्वस्मिन् साम्प्रतं लोके
कोऽन्वस्मिन् साम्प्रतं लोके
गुणवान् कश्च वीर्यवान्
गुणवान् कश्च वीर्यवान्
धर्मज्ञश्च कृतज्ञश्च
धर्मज्ञश्च कृतज्ञश्च
सत्यवाक्यो दृढव्रतः
सत्यवाक्यो दृढव्रतः
चारित्रेण च को युक्तः
चारित्रेण च को युक्तः
सर्वभूतेषु को हितः
सर्वभूतेषु को हितः
विद्वान् कः कः समर्थश्च
विद्वान् कः कः समर्थश्च
कश्चैकप्रियदर्शनः
कश्चैकप्रियदर्शनः
आत्मवान् को जितक्रोधः
आत्मवान् को जितक्रोधः
द्युतिमान् को न सूयकः
द्युतिमान् को न सूयकः
कस्य बिभ्यति देवाश्च
कस्य बिभ्यति देवाश्च
जातरोषस्य संयुगे
जातरोषस्य संयुगे
एतदिच्छाम्यहं श्रोतुम्
एतदिच्छाम्यहं श्रोतुम्
परं कौतूहलं हि मे
परं कौतूहलं हि मे
महर्षे त्वं समर्थोऽसि
महर्षे त्वं समर्थोऽसि
ज्ञातुमेवं विधं नरम्
ज्ञातुमेवं विधं नरम्
श्रुत्वा चैतत्त्रिलोकज्ञः
श्रुत्वा चैतत्त्रिलोकज्ञः
वाल्मीकेर्नारदो वचः
वाल्मीकेर्नारदो वचः
श्रूयतामिति चामन्त्र्य
श्रूयतामिति चामन्त्र्य
प्रहृष्टो वाक्यमब्रवीत्
प्रहृष्टो वाक्यमब्रवीत्
बहवो दुर्लभाश्चैव
बहवो दुर्लभाश्चैव
ये त्वया कीर्तिता गुणाः
ये त्वया कीर्तिता गुणाः
मुने वक्ष्याम्यहं बुद्ध्वा
मुने वक्ष्याम्यहं बुद्ध्वा
तैर्युक्तश्रूयतान्नरः
तैर्युक्तश्रूयतान्नरः
इक्ष्वाकुवंशप्रभवः
इक्ष्वाकुवंशप्रभवः
रामो नाम जनैश्रुतः
रामो नाम जनैश्रुतः
नियतात्मा महावीर्यः
नियतात्मा महावीर्यः
द्युतिमान् धृतिमान् वशी
द्युतिमान् धृतिमान् वशी
बुद्धिमान् नीतिमान् वाग्मी
बुद्धिमान् नीतिमान् वाग्मी
श्रीमान् शत्रुनिबर्हणः
श्रीमान् शत्रुनिबर्हणः
विपुलांसो महाबाहुः
विपुलांसो महाबाहुः
कम्बुग्रीवो महाहनुः
कम्बुग्रीवो महाहनुः
महोरस्को महेश्वासः
महोरस्को महेश्वासः
गूढजत्रुररिन्दमः
गूढजत्रुररिन्दमः
आजानुबाहुः सुशिराः
आजानुबाहुः सुशिराः
सुललाटः सुविक्रमः समस्समविभक्ताङ्गः
स्निग्धवर्णः प्रतापवान्
पीनवक्षाविशालाक्षः लक्ष्मीवान् शुभलक्षणः धर्मज्ञः सत्यसन्धश्च प्रजानाञ्च हिते रतः
यशस्वी ज्ञानसम्पन्नः
शुचिर्वश्यः समाधिमान्
प्रजापतिसमश्रीमान्
धाता रिपुनिषूदनः
रक्षिता जीवलोकस्य
धर्मस्य परिरक्षिता
रक्षिता स्वस्य धर्मस्य
स्वजनस्य च रक्षिता वेदवेदाङ्गतत्त्वज्ञः
धनुर्वेदे च निष्ठितः
सर्वशास्त्रार्थतत्त्वज्ञः
स्मृतिमान् प्रतिभानवान्
सर्वलोकप्रियः साधुः
अदीनात्मा विचक्षणः
सर्वदाभिगतः सद्भिः
समुद्र इव सिन्धुभिः
आर्यः सर्वसमश्चैव
सदैव प्रियदर्शनः
स च सर्वगुणोपेतः
कौसल्यानन्दवर्धनः
समुद्र इव गाम्भीर्ये
धैर्येण हिमवानिव
विष्णुना सदृशो वीर्ये
सोमवत्प्रियदर्शनः
कालाग्निसदृशः क्रोधे
क्षमया पृथिवी समः
धनदेन समस्त्यागे
सत्ये धर्म इवापरः
तमेवं गुणसम्पन्नम्
रामं सत्यपराक्रमम्
ज्येष्ठं श्रेष्ठगुणैर्युक्तम्
प्रियं दशरथः सुतम्
प्रकृतीनां हितैर्युक्तम्
प्रकृतिप्रियकाम्यया
यौवराज्येन संयोक्तुम्
ऐच्छत् प्रीत्या महीपतिः ऐच्छत् प्रीत्या महीपतिः
तस्याभिषेकसंभारान्
तस्याभिषेकसंभारान्
दृष्ट्वा भार्याथ कैकयी
दृष्ट्वा भार्याथ कैकयी
पूर्वं दत्तवरा देवी
पूर्वं दत्तवरा देवी
वरमेन मयाचत
वरमेन मयाचत
विवासनं च रामस्य
विवासनं च रामस्य
भरतस्याभिषेचनम्
भरतस्याभिषेचनम्
ससत्यवचनाद्राजा
ससत्यवचनाद्राजा
धर्मपाशेन संयतः
धर्मपाशेन संयतः
विवासयामास सुतम्
विवासयामास सुतम्
रामं दशरथः प्रियम्
रामं दशरथः प्रियम्
स जगाम वनं वीरः
स जगाम वनं वीरः
प्रतिज्ञामनुपालयन्
प्रतिज्ञामनुपालयन्
पितुर्वचन निर्देशात्
पितुर्वचन निर्देशात्
कैकेय्याः प्रियकारणात्
कैकेय्याः प्रियकारणात्
तं व्रजन्तं प्रियो भ्राता
तं व्रजन्तं प्रियो भ्राता
लक्ष्मणो नु जगामः
लक्ष्मणो नु जगामः
स्नेहाद्विनय सम्पन्नः
स्नेहाद्विनय सम्पन्नः
सुमित्रानन्दवर्धनः
सुमित्रानन्दवर्धनः
भ्रातरन्दयितो भ्रातुः
भ्रातरन्दयितो भ्रातुः
सौभ्रात्रमनुदर्शयन्
सौभ्रात्रमनुदर्शयन्
रामस्य दयिता भार्या
रामस्य दयिता भार्या
नित्यं प्राणसमाहिता
नित्यं प्राणसमाहिता
जनकस्य कुले जाता
जनकस्य कुले जाता
देवमायेव निर्मिता
देवमायेव निर्मिता
सर्वलक्षणसम्पन्ना
सर्वलक्षणसम्पन्ना
नारीणामुत्तमा वधूः
नारीणामुत्तमा वधूः
सीताप्यनुगता रामम्
सीताप्यनुगता रामम्
शशिनं रोहिणी यथा
शशिनं रोहिणी यथा
पौरैरनुगतो दूरम्
पौरैरनुगतो दूरम्
पित्रा दशरथेन च
पित्रा दशरथेन च
शृङ्गिबेरपुरे सूतम्
शृङ्गिबेरपुरे सूतम्
गङ्गाकूले व्यसर्जयत्
गङ्गाकूले व्यसर्जयत्
गुहमासाद्य धर्मात्मा
गुहमासाद्य धर्मात्मा
निषादाधिपतिं प्रियम्
निषादाधिपतिं प्रियम्
गुहेन सहितो रामः
गुहेन सहितो रामः
लक्ष्मणेन च सीतया
लक्ष्मणेन च सीतया
ते वनेन वनं गत्वा
ते वनेन वनं गत्वा
नदीस्तीर्त्वा बहूदकाः
नदीस्तीर्त्वा बहूदकाः
चित्रकूटमनुप्राप्य
चित्रकूटमनुप्राप्य
भरद्वाजस्य शासनात्
भरद्वाजस्य शासनात्
रम्यमावसथं कृत्वा
रम्यमावसथं कृत्वा
रममाणावनेत्रयः
रममाणावनेत्रयः
देवगन्धर्वसङ्काशाः
देवगन्धर्वसङ्काशाः
तत्र तेऽन्यवसन् सुखम्
तत्र तेऽन्यवसन् सुखम्
चित्रकूटं गते रामे
चित्रकूटं गते रामे
पुत्रशोकातुरस्तथा
पुत्रशोकातुरस्तथा
राजा दशरथस्वर्गम्
राजा दशरथस्वर्गम्
जगाम विलपन् सुतम्
जगाम विलपन् सुतम्
मृते तु तस्मिन् भरतः
मृते तु तस्मिन् भरतः
वसिष्ठप्रमुखैर्द्विजैः
वसिष्ठप्रमुखैर्द्विजैः
नियुज्यमानो राज्याय
नियुज्यमानो राज्याय
नैच्छद्राज्यं महाबलः
नैच्छद्राज्यं महाबलः
स जगामवनं वीरः
स जगामवनं वीरः
रामपादप्रसादकः
रामपादप्रसादकः
गत्वा तु स महात्मानम्
गत्वा तु स महात्मानम्
रामं सत्यपराक्रमम्
रामं सत्यपराक्रमम्
अयाचद्भ्रातरं रामम्
अयाचद्भ्रातरं रामम्
आर्यभावपुरस्कृतः
आर्यभावपुरस्कृतः
त्वमेव राजा धर्मज्ञ
त्वमेव राजा धर्मज्ञ
इति रामं वचोब्रवीत्
इति रामं वचोब्रवीत्
रामोऽपि परमोदारः
रामोऽपि परमोदारः
सुमुखः सुमहायशाः
सुमुखः सुमहायशाः
न चैच्छत्पितुरादेशात्
न चैच्छत्पितुरादेशात्
राज्यं रामो महाबलः
राज्यं रामो महाबलः
पादुके चास्य राज्याय
पादुके चास्य राज्याय
न्यासं दत्त्वा पुनः पुनः
न्यासं दत्त्वा पुनः पुनः
निवर्तयामास ततः
निवर्तयामास ततः
भरतं भरताग्रजः
भरतं भरताग्रजः
सकाममनवाप्यैव
सकाममनवाप्यैव
रामपादावुपस्पृशन्
रामपादावुपस्पृशन्
नन्दिग्रामे करोद्राज्यम्
नन्दिग्रामे करोद्राज्यम्
रामागमनकाङ्क्षया
रामागमनकाङ्क्षया
गते तु भरते श्रीमान्
गते तु भरते श्रीमान्
सत्यसन्धो जितेन्द्रियः
सत्यसन्धो जितेन्द्रियः
रामस्तु पुनरालक्ष्य
रामस्तु पुनरालक्ष्य
नागरस्य जनस्य च
नागरस्य जनस्य च
तत्रागमनमेकाग्रह
तत्रागमनमेकाग्रह
दण्डकान् प्रविवेशः
दण्डकान् प्रविवेशः
प्रविश्यतु महारण्यम्
प्रविश्यतु महारण्यम्
रामो राजीवलोचनः
रामो राजीवलोचनः
विराधं राक्षसं हत्वा
विराधं राक्षसं हत्वा
शरभङ्गं ददर्शः
शरभङ्गं ददर्शः
सुतीक्ष्णञ्चाप्यगस्त्यञ्च
अगस्त्यभ्रातरन्तथा
अगस्त्यवचनाच्चैव
जग्राहैन्द्रं शरासनम्
खड्गञ्च परमप्रीतः तूणी चाक्षयसायकौ
वसतस्तस्य रामस्य
वने वनचरैः सह ऋषयोऽभ्यागमन् सर्वे
वधायासुररक्षसाम्
सतेषां प्रति शुश्राव
राक्षसानां तथा वने
प्रतिज्ञातश्च रामेण
वधः संयति रक्षसाम्
ऋषीणामग्निकल्पानाम्
दण्डकारण्यवासिनाम्
तेन तत्रैव वसता जनस्थाननिवासिनी
विरूपिता शूर्पणखा
राक्षसी कामरूपिणी
ततः शूर्पणखावाक्यात्
उद्युक्तान् सर्वराक्षसान्
खरन् त्रिशिरसञ्चैव
दूषणञ्चैव राक्षसम्
निजघानरणे रामः
तेषाञ्चैव पदानुगान्
वने तस्मिन्निवसता
जनस्थाननिवासिनाम्
रक्षसान्निहतान्यासन्
सहस्राणि चतुर्दश
ततो ज्ञातिवधं श्रुत्वा
रावणः क्रोधमूर्च्छितः
सहायं वरयामास
मारीचन्नाम राक्षसम्
वार्यमाणस्सु बहुशः
मारीचेन स रावणः
न विरोधो बलवता
क्षमो रावणतेन ते
अनादृत्य तु तद्वाक्यम्
रावणः कालचोदितः
जगामसह मारीचः
तस्याश्रमपदं तदा
ತೇನ ಮಾಯಾವಿನಾ ದೂರಂ
ತೇನ ಮಾಯಾವಿನಾ ದೂರಂ
ಅಪವಾಹ್ಯ ನೃಪಾತ್ಮಜೌ
ಅಪವಾಹ್ಯ ನೃಪಾತ್ಮಜೌ
ಜಹಾರ ಭಾರ್ಯಾಂ ರಾಮಸ್ಯ
ಜಹಾರ ಭಾರ್ಯಾಂ ರಾಮಸ್ಯ
ಗೃಧ್ರಂ ಹತ್ವಾ ಜಟಾಯುಷಂ
ಗೃಧ್ರಂ ಹತ್ವಾ ಜಟಾಯುಷಂ
ಗೃಧ್ರಂ ಚ ನಿಹತಂ ದೃಷ್ಟ್ವಾ
ಗೃಧ್ರಂ ಚ ನಿಹತಂ ದೃಷ್ಟ್ವಾ
ಹೃತಾಂ ಶ್ರುತ್ವಾ ಚ ಮೈಥಿಲೀಂ
ಹೃತಾಂ ಶ್ರುತ್ವಾ ಚ ಮೈಥಿಲೀಂ
ರಾಘವಶೋಕ ಸಂತಪ್ತಃ
ರಾಘವಶೋಕ ಸಂತಪ್ತಃ
ವಿಲಲಾಪಾಕುಲೇಂದ್ರಿಯಃ
ವಿಲಲಾಪಾಕುಲೇಂದ್ರಿಯಃ
ತತಸ್ತೇನೈವ ಶೋಕೇನ
ತತಸ್ತೇನೈವ ಶೋಕೇನ
ಗೃಧ್ರಂ ದಗ್ಧ್ವಾ ಜಟಾಯುಷಂ
ಗೃಧ್ರಂ ದಗ್ಧ್ವಾ ಜಟಾಯುಷಂ
ಮಾರ್ಗಮಾಣೋ ವನೇ ಸೀತಾಂ
ಮಾರ್ಗಮಾಣೋ ವನೇ ಸೀತಾಂ
ರಾಕ್ಷಸಂ ಸಂದದರ್ಶಃ
ರಾಕ್ಷಸಂ ಸಂದದರ್ಶಃ
ಕಬಂಧನ್ ನಾಮ ರೂಪೇಣ
ಕಬಂಧನ್ ನಾಮ ರೂಪೇಣ
ವಿಕೃತಂ ಘೋರ ದರ್ಶನಂ
ವಿಕೃತಂ ಘೋರ ದರ್ಶನಂ
ತನ್ನಿಹತ್ಯ ಮಹಾಬಾಹುಃ
ತನ್ನಿಹತ್ಯ ಮಹಾಬಾಹುಃ
ದದಾಹ ಸ್ವರ್ಗತಶ್ಚ ಸಹ
ದದಾಹ ಸ್ವರ್ಗತಶ್ಚ ಸಹ
ಸ ಚಾಪಿ ಕಥಯಾಮಾಸ
ಸ ಚಾಪಿ ಕಥಯಾಮಾಸ
ಶಬರೀಂ ಧರ್ಮಚಾರಿಣೀಂ
ಶಬರೀಂ ಧರ್ಮಚಾರಿಣೀಂ
ಶ್ರಮಣೀಂ ಧರ್ಮ ನಿಪುಣಾಂ
ಶ್ರಮಣೀಂ ಧರ್ಮ ನಿಪುಣಾಂ
ಅಭಿಗಚ್ಛೇತಿ ರಾಘವಂ
ಅಭಿಗಚ್ಛೇತಿ ರಾಘವಂ
ಸೋಭ್ಯಗಚ್ಛನ್ ಮಹಾತೇಜಾಃ
ಸೋಭ್ಯಗಚ್ಛನ್ ಮಹಾತೇಜಾಃ
ಶಬರೀಂ ಶತ್ರುಸೂದನಃ
ಶಬರೀಂ ಶತ್ರುಸೂದನಃ
ಶಬರ್ಯಾ ಪೂಜಿತಃ ಸಮ್ಯಕ್
ಶಬರ್ಯಾ ಪೂಜಿತಃ ಸಮ್ಯಕ್
ರಾಮೋ ದಶರಥಾತ್ಮಜಃ
ರಾಮೋ ದಶರಥಾತ್ಮಜಃ
ಪಂಪಾತೀರೆ ಹನುಮತಾ
ಪಂಪಾತೀರೆ ಹನುಮತಾ
ಸಂಗತೋ ವಾನರೇಣಃ
ಸಂಗತೋ ವಾನರೇಣಃ
ಹನುಮದ್ವಚನಾಚೈವ
ಹನುಮದ್ವಚನಾಚೈವ
ಸುಗ್ರೀವೇಣ ಸಮಾಗತಃ
ಸುಗ್ರೀವೇಣ ಸಮಾಗತಃ
ಸುಗ್ರೀವಾಯ ಚ ತತ್ಸರ್ವಂ
ಸುಗ್ರೀವಾಯ ಚ ತತ್ಸರ್ವಂ
ಶಂಸದ್ರಾಮೋ ಮಹಾಬಲಃ
ಶಂಸದ್ರಾಮೋ ಮಹಾಬಲಃ
ಆದಿತಸ್ತದ್ಯಥಾ ವೃತ್ತಂ
ಆದಿತಸ್ತದ್ಯಥಾ ವೃತ್ತಂ
ಸೀತಾಯಾಶ್ಚ ವಿಶೇಷತಃ
ಸೀತಾಯಾಶ್ಚ ವಿಶೇಷತಃ
ಸುಗ್ರೀವಶ್ಚಾಪಿ ತತ್ಸರ್ವಂ
ಸುಗ್ರೀವಶ್ಚಾಪಿ ತತ್ಸರ್ವಂ
ಶ್ರುತ್ವಾ ರಾಮಸ್ಯ ವಾನರಃ
ಶ್ರುತ್ವಾ ರಾಮಸ್ಯ ವಾನರಃ
ಚಕಾರ ಸಖ್ಯಂ ರಾಮೇಣ
ಚಕಾರ ಸಖ್ಯಂ ರಾಮೇಣ
ಪ್ರೀತಶ್ಚೈವಾಗ್ನಿಸಾಕ್ಷಿಕಂ
ಪ್ರೀತಶ್ಚೈವಾಗ್ನಿಸಾಕ್ಷಿಕಂ
ತತೋ ವಾನರರಾಜೇನ
ತತೋ ವಾನರರಾಜೇನ
ವೈರಾನುಕಥನಂ ಪ್ರತಿ
ವೈರಾನುಕಥನಂ ಪ್ರತಿ
ರಾಮಾಯಾ ವೇದಿತಂ ಸರ್ವಂ
ರಾಮಾಯಾ ವೇದಿತಂ ಸರ್ವಂ
ಪ್ರಣಯಾದ್ದುಃಖಿತೇನ ಚ
ಪ್ರಣಯಾದ್ದುಃಖಿತೇನ ಚ
ಪ್ರತಿಜ್ಞಾತಂಚ ರಾಮೇಣ
ಪ್ರತಿಜ್ಞಾತಂಚ ರಾಮೇಣ
తదా వాలివధం ప్రతి వాలినశ్చ బలం తత్ర కథయామాస వానరః సుగ్రీవశ్శంకితశ్చాసీత్ నిత్యం వీర్యేణ రాఘవే రాఘవ ప్రత్యయార్థంతు దుందుభేః కాయముత్తమం దర్శయామాస సుగ్రీవః మహాపర్వత సన్నిభం ఉత్స్మయిత్వా మహాబాహుః ప్రేక్ష్య చాస్థి మహాబలః పాదాంగుష్ఠేన చిక్షేప సంపూర్ణం దశయోజనం బిభేద చ పునః సాలాన్ సప్తైకేన మహేషుణా గిరిం రసాతలం చైవ జనయన్ ప్రత్యయంతదా తతః ప్రీతమనాస్తేన విశ్వస్తః స మహాకపిః కిష్కింధాం రామ సహితః జగామ చ గుహాంతదా తతో గర్జద్ధరివరః సుగ్రీవో హేమపింగళః తేన నాదేన మహతా నిర్జగామహరీశ్వరః అనుమాన్యతదాతారాం సుగ్రీవేణ సమాగతః నిజఘాన చ తత్రైనం శరేణైకేన రాఘవః తతః సుగ్రీవ వచనాత్ హత్వా వాలినమాహవే సుగ్రీవమేవ తద్రాజ్యే రాఘవః ప్రత్యపాదయత్ సచ సర్వాన్ సమానీయ వానరాన్ వానరర్షభః దిశః ప్రస్థాపయామాస దిదృక్షుర్జనకాత్మజాం తతో గృధ్రస్య వచనాత్ సంపాతేర్హనుమాన్ బలీ శతయోజన విస్తీర్ణం పుప్లువే లవణార్ణవం తత్ర లంకాం సమాసాద్య
तत्र लंकां समासाद्य
पुरीं रावणपालिताम्
पुरीं रावणपालिताम्
ददर्श सीतां ध्यायन्तीं
ददर्श सीतां ध्यायन्तीं
अशोकवनिकां गताम्
अशोकवनिकां गताम्
निवेदयित्वाभिज्ञानम्
निवेदयित्वाभिज्ञानम्
प्रवृत्तिं च निवेद्य च
प्रवृत्तिं च निवेद्य च
समाश्वास्य च वैदेहीं
समाश्वास्य च वैदेहीं
मर्दयामास तोरणं
मर्दयामास तोरणं
पञ्चसेनाग्रगान् हत्वा
पञ्चसेनाग्रगान् हत्वा
सप्तमन्त्रिसुतानपि शूरमक्षञ्च निष्पिष्य
ग्रहणं समुपागमत्
अस्त्रेणोन्मुक्तमात्मानम्
ज्ञात्वा पैतामहाद्वरात्
मर्षयन् राक्षसान् वीरः यन्त्रिणस्तान्यदृच्छया ततो दग्ध्वा पुरीं लंकां ऋते सीतां च मैथिलीं
रामाय प्रियमाख्यातुं
पुनरायान् महाकपिः सोभिगम्य महात्मानम्
कृत्वा रामं प्रदक्षिणम्
न्यवेदयदमेयात्मा
दृष्टासीतेति तत्त्वतः
ततः सुग्रीवसहितः गत्वा तीरं महोदधेः
समुद्रं क्षोभयामास
शरैरादित्यसन्निभैः दर्शयामास चात्मानम् समुद्रः सरितां पतिः
समुद्रवचनाच्चैव
नलं सेतुमकारयत् तेन गत्वा पुरीं लंकां
हत्वा रावणमाहवे
रामः सीतामनुप्राप्य परां व्रीडामुपागमत् तामुवाच ततो रामः परुषं जनसंसदि
अमृष्यमाणा सा सीता
विवेशज्वलनं सती
ततोऽग्निवचनात् सीताम् ज्ञात्वा विगतकल्मषाम् बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः कर्मणा तेन महता त्रैलोक्यं सचराचरम् सदेवर्षि गणं तुष्टम् राघवस्य महात्मनः अभिषिच्य च लङ्कायाम् राक्षसेन्द्रं विभीषणम् कृतकृत्यस्तदा रामः विज्वरः प्रमुमोदः देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः भरतस्यान्तिकं रामः हनुमन्तं व्यसर्जयत् पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितो नघः रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् प्रहृष्टमुदितो लोकः तुष्टः पुष्टः सुधार्मिकः निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् नार्यश्चाविधवा नित्यम् भविष्यन्ति पतिव्रताः न चाग्निजं भयं किञ्चित् नाप्सु मज्जन्ति जन्तवः न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा न चापि क्षुद्भयं तत्र न तस्करभयं तथा नगराणि च राष्ट्राणि
नगराणि च राष्ट्राणि
धनधान्ययुतानि च
धनधान्ययुतानि च
नित्यं प्रमुदिताः सर्वे
नित्यं प्रमुदिताः सर्वे
यथा कृतयुगे तथा
यथा कृतयुगे तथा
अश्वमेधशतैरिष्ट्वा
अश्वमेधशतैरिष्ट्वा
तथा बहुसुवर्णकैः
तथा बहुसुवर्णकैः
गवाङ्कोट्ययुतं दत्त्वा
गवाङ्कोट्ययुतं दत्त्वा
विद्वद्भ्यो विधिपूर्वकम्
विद्वद्भ्यो विधिपूर्वकम्
असङ्ख्येयं धनं दत्त्वा
असङ्ख्येयं धनं दत्त्वा
ब्राह्मणेभ्यो महायशाः
ब्राह्मणेभ्यो महायशाः
राजवंशान् शतगुणान्
राजवंशान् शतगुणान्
स्थापयिष्यति राघवः
स्थापयिष्यति राघवः
चातुर्वर्ण्यं च लोकेऽस्मिन्
चातुर्वर्ण्यं च लोकेऽस्मिन्
स्वे स्वे धर्मे नियोक्ष्यति
स्वे स्वे धर्मे नियोक्ष्यति
दशवर्षसहस्राणि
दशवर्षसहस्राणि
दशवर्षशतानि च
दशवर्षशतानि च
रामो राज्यमुपासित्वा
रामो राज्यमुपासित्वा
ब्रह्मलोकं प्रयास्यति
ब्रह्मलोकं प्रयास्यति
इदं पवित्रं पापघ्नम्
इदं पवित्रं पापघ्नम्
पुण्यं वेदैश्च सम्मितम्
पुण्यं वेदैश्च सम्मितम्
यः पठेद् रामचरितम्
यः पठेद् रामचरितम्
सर्वपापैः प्रमुच्यते
सर्वपापैः प्रमुच्यते
एतदाख्यानमायुष्यम्
एतदाख्यानमायुष्यम्
पठन् रामायणं नरः
पठन् रामायणं नरः
सपुत्रपौत्रः सगणः
सपुत्रपौत्रः सगणः
प्रेत्य स्वर्गे महीयते
प्रेत्य स्वर्गे महीयते
पठन् द्विजो वागृषभत्वमीयात्
पठन् द्विजो वागृषभत्वमीयात्
स्यात् क्षत्रियो भूमिपतित्वमीयात्
स्यात् क्षत्रियो भूमिपतित्वमीयात्
वणिग्जनः पण्यफलत्वमीयात्
वणिग्जनः पण्यफलत्वमीयात्
जनश्च शूद्रोऽपि महत्त्वमीयात्
जनश्च शूद्रोऽपि महत्त्वमीयात्
इत्यार्षे
इत्यार्षे
श्रीमद् रामायणे
श्रीमद् रामायणे
वाल्मीकीये
वाल्मीकीये
आदिकाव्ये
आदिकाव्ये
चतुर्विंशतिसहस्रिकायां
चतुर्विंशतिसहस्रिकायां
संहितायां
संहितायां
बालकाण्डे
बालकाण्डे
नारदवाक्यन्नाम
नारदवाक्यन्नाम
प्रथमः सर्गः
प्रथमः सर्गः
श्रीरामचन्द्रार्पणमस्तु
श्रीरामचन्द्रार्पणमस्तु